पृथिवां सूरमुदीदे सूक्तैर्मित्रम् भूदेवरुणम् भूतदक्षम् योरसूर्या अमक्षीतम् ज्येष्ठम् विश्वस्य रामम् नादिदाधिगत्नो हि देवानामसु राता भर्यातानाः क्षितीः करतमोर्जयम् दीः अश्यामित्रावयम् भाव्या वाधयत्रापि वयन्नः च सा भूरी बाधावृतस्य ऋतस्यामित्रावरुणापथावामपो नावादूरितादरेम आमा मित्रावरुणाहव्यजुष्टिम् घृतैर्गव्योतिमुक्षतमिलाभिः प्रतीभामद्रवरमाजनाय प्रणीतमुद्नो दिव्यस्य नारोः येन स्तोमावरुणैतरुभ्यम् सोमः शुक्रो न वायवेयामि अभिष्टम् धियो द्विघृतम् पुरम् धेर्योऽयम् पादस्वस्तिभिः सदा नः